इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतीय जनता पार्टीति दलेन अरुणाचल प्रदेश राज्यस्य नैर्वाचनिक समराङ्गणं विजित्य सुरक्षितम्। सिक्किम क्रांति मोर्चा इत्याख्येन दलेनापि द्वात्रिंशद् आसनेषु एकत्रिंशद् आसनानि विजित्य सिक्किम प्रदेशे पुनरेकवारं सत्ता सम्प्राप्ता। उभयोः पूर्वोत्तरीय राज्ययोः विधानसभा निर्वाचनस्य ह्यः मतगणना आसीत्। उभयत्र हि 21 अप्रैलमासे मतदानम् आसीत्, यत्र अरुणाचल प्रदेशे 6 आसनानि आसन्, तत्रैव सिक्किमे 32 आसन्दनानि आसन्। अरुणाचल प्रदेशे च भाजपेति दलेन 10 आसनेषु निर्विरोधतया निर्वाचन पुरस्सरम् आहत्य 44 स्थानानि सन्ति सुरक्षितानि। प्रधानमन्त्री नरेन्द्रमोदी ह्यः अत्यधिक ऊष्मतया सह चक्रवातादि 7 विषयान् अवलम्ब्य 7 आचरितानि। प्रथमोपवेशने पूर्वोत्तर राज्येषु आगतस्य चक्रवातस्य स्थितेः समीक्षा अभवत्। अन्ये एकस्मिन् उपवेशने राष्ट्रे उत्कट घर्मस्य समीक्षा जाता। श्रीमोदी विश्व पर्यावरण दिवसस्य व्यापकतया समायोजनस्य अभिलक्ष्य अपि एकस्य समीक्षोपवेशनस्य आयोजनं कृतवान्। प्रधानमन्त्री संघट्यमानस्य नूतन प्रशासनस्य शतदिवसीय कार्ययोजनाम् अभिलक्ष्यापि उपवेशनमेकं समायोजितम्। दिल्ल्याः राउज एवेन्यू न्यायालयेन ह्यः मुख्यमन्त्री अरविन्द केजरीवालः कथित मद्यनीतेः धनशोधन प्रवञ्चना सन्दर्भे जूनमासस्य 5 न्यायिक निग्रहे प्रेषितः। न्यायालयः केजरीवालं प्रति प्रवर्तन निदेशालयस्य आवेदनस्य श्रवणं कुर्वनासीत्। असौ अल्पकालिक मुक्ति याचिकायाम् आसीत्, अनेन कारणेन आवेदनं लम्बितमासीत्। ह्यः तस्य आत्मसमर्पणानन्तरं राउज एवेन्यू न्यायालयेन जूनमासस्य 5 न्यायिक निग्रहे असौ प्रेषितः। आत्मसमर्पणात् पूर्वं केजरीवालः दलनेतृभिः कार्यकर्तृभिः सह संवादं कृतवान्, जनान् सम्बोधितवान् च। केजरीवालः कथिते दिल्ल्याः मद्यनीतिप्रवञ्चना प्रकरणे मार्चमासस्य 21 प्रवर्तन निदेशालयेन गृहीतः आसीत्। सः मई मासस्य 10 अल्पावधिक मुक्तिं प्राप्तवान् आसीत्। सर्वोच्च न्यायालयेन ह्यः तिहाड़ कारावासे आत्मसमर्पणं कर्तुं पृष्टः आसीत्। मुष्टामुष्टि क्रीडायां भारतीय मुष्टामुष्टि क्रीडकौ जैस्मिन लम्बोरिया अमित पंगलः च ह्यः उत्कृष्ट प्रदर्शनस्य अनन्तरं प्रतिष्ठित पेरिस ओलम्पिक क्रीडायां प्रवेशं कृतवन्तौ। पुरुषाणाम् 150 किलोग्राममितस्य प्रागुपान्त्य चक्रीय क्रीडायाम् अमितः चीनस्य ल्यू च्युआंग इत्यमुं 5-0 इत्यंकान्तरालेन पराजित्य विजयं प्राप्तवान्। तत्रैव जैस्मिन महिलानां 57 किलोग्राममिते वर्गे माली देशस्य मरीना कैमारा इत्येतां पराजितवती। 24,000-2,000 ताइवान एथलेटिक ओपन इत्यस्यां क्रीडायां भारतीयदलेन 3 स्वर्णपदकानि, 3 रजतपदकानि, 1 कांस्यपदकं च समेत्य 7 प्राप्य उल्लेखनीय पदक प्राप्त्याभियानस्य समापनं कृतम्। 20-प्रतिविंशति पुरुषवर्गस्य विश्वचषक क्रिकेट स्पर्धायां गतरात्रौ गुयाना क्षेत्रस्थे प्रोविडेंस क्रीडांगणे वेस्टइंडीजदलेन पापुआ न्यूगिनी देशीयं दलं 5 पराजितम् इति वार्ताः।